पिबासो ममभियमुग्रतर्द ओर्वङ्गव्यम् महि गृणान इन्द्र विजो धृष्टावधिशो वज्रहस्त विश्वा वृत्रममित्रिजाशवोभिः स एम् पाहि जरदेशे तरुत्रो यस्य प्रभान् वृषभो यो मतीनाम् योग अत्र भिद्वज्रभृद्यो हरिष्ठाः स इन्द्रचित्राङ्कभित्रन्धि वाजान् एवापाहि प्रत्नथा मन्दतुत्वा श्रुधि ब्रह्म वा वृधस्वोत गीर्भिः आविस्वर्यम् कृणुहिपेपिहेशो जहि शत्रोऽङ्घ्रभिगा इन्द्रद्रन्धि ते त्वामदा बृहदिन्द्रस्वधाव इमे पीता उक्षयन्तद्युमन्तम् महामनो नन्तवसम् विभो दिम् मत्सरासो जर्हृषन्त प्रसाहम् येभिः सौर्यमुषसम् मन्दसानो वा सयोपदृह्लानितर्द्रत महामद्रिम् परिका इन्द्रसन्तम् नुत्था अच्युतम् सदसस्परिस्वात् तव क्रत्वा तव तद्दंसनाभिरामासु भक्वम् शच्यानिदेधः और्णार्दुर उत्सृजाभ्यो विदृह्लो दुर्वाद्गा असृजो अङ्गिरस्वान् पप्राथक्षाम् महितम् सोऽव्यो उर्वीमुपद्यामृष्व बृहदिन्द्रस्तभाजः अधारजो रोदसे देवपुत्रे प्रत्ने मातरा जह्वीरतस्य अध त्वा विश्वे पुर इन्द्रदेवा एकम् तपसम् दधिरे भराज अदे भोजदभ्यौ हिष्टदेवान् स्वर्षातावृणत इन्द्रमत्र अधद्योश्चित्ते अपसानुवज्राद्वितानमद्भिजसा स्वस्य मन्योः अहिंयदिन्द्रो अभ्योहसानन्यचिद्विश्वाजुषयथे जघान अधत्पष्टा ते मह उग्रवज्रम् सहस्रभृष्टिम् ववृतच्छताश्रिम् निकाममरमणसंज्ञेन नवन्तमहिंसम् पिणगृजीषिन् वर्धान्यम् विश्वे मरुतः सजोषाः पचच्छदम् महिषाम् इन्द्रतुभ्यम् पोषा विष्णुस्त्रीणि सरांसि धावन्व्रत्रहणम् मदिरमंशुमस्मै आक्षोदो महि व्रतम् नदीनाम् परिष्ठितमसृज ऊर्मिमपाम् तासामनप्रवद इन्द्रपन्थाम् प्रार्दयो नीचेरपसः समुद्रम् एपाता विश्वा च कृपाम् समिन्द्रम् महामुग्रमजुर्यम् सहोदाम् सुवीरम् त्वा स्वायुधम् सुभज्रमा ब्रह्मनव्यमवसेववृत्यात् स नो वाजा जश्रवस इषे च राजेधेहिद्युमत इन्द्रविप्रान् भरद्वाजे नृपत इन्द्रसूरेन्दिवि च स्मैधिपार्येन इन्द्र अयावाचम् देवहितम् सने मम देम शतहि मा सुवीराः